ओम नमो भगवते वासुदेवाय। अथ पंचाशीतितमोऽध्यायः। श्री बादरायणि उवाच। अथैकदात्मजौ प्राप्तौ कृतपादाभिवन्दनौ वसुदेवोऽभिनन्द्याः प्रीत्या संकर्षणाच्युतौ। मुनीनां सवच श्रुत्वा पुत्रयोर्धामसूचकम् तद्वीर्यैर्जातविश्रम्भः परिभाष्याभ्यभाषत। कृष्णकृष्णमहायोगिन् संकर्षण सनातन जाने वामस्य यत्साक्षात् प्रधानपुरुषौ परौ। यत्र येन यतो यस्य यस्मै यद् यद् यथा यदा स्यादिदं भगवान् साक्षात् प्रधानपुरुषेश्वरः। एतन्नानाविधं विश्वमात्मसृष्टमधोक्षज आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्षजः। प्राणादीनां विश्वसृजां शक्तयो याः परस्य ताः पारतन्त्र्याद्वै सादृश्यात् द्वयोश्चेष्टैव चेष्टताम्। कान्तिस्तेजः प्रभासत्ता चन्द्राग्न्यर्कर्षविद्युताम्। यत्स्थैर्यं भूभृतां भूमेर्वृत्तिर्गन्धोऽर्थथो भवान् तर्पणं प्राणनमपां देवत्वं ताश्च तद्रसः। ओजः सहो बलं चेष्टा गतिर्वायोस्तवेश्वर। दिशां त्वमवकाशोऽसि दिशखं स्फोटाश्रयः। नादो वर्णस्त्वमोङ्कार आकृतीनां पृथक्कृतिः। इन्द्रियं त्विन्द्रियाणां त्वं देवाश्च तदनुग्रहः। अवबोधो भवान् बुद्धेर्जीवस्यानुस्मृतिः सति। भूतानामसि भूतादिरिन्द्रियाणां च तैजसः। वैकारिको विकल्पानां प्रधानमनुषायिनां नश्वरेष्विह भावेषु तदसि त्वमनश्वरम्। यथा द्रव्यविकारेषु द्रव्यमात्रं निरूपितम्। सत्वं रजस्तम इति गुणास्तद्वृत्तयश्च याः त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमायया। तस्मान्न सन्त्यमी भावा यर्हि त्वयि विकल्पिताः। त्वं चामीषु विकारेषु यन्यदा व्यावहारिकः। गुणप्रवाह एतस्मिन्न बुधास्त्वखिलात्मनः। गतिं सूक्ष्मामबोधेन संसरन्तीह कर्मभिः। यदृच्छया नृतां प्राप्य सुकल्पामिह दुर्लभां। स्वार्थे प्रमत्तस्य वयो गतं त्वन्माययेश्वर। असावहं ममैवैते देहे चास्यान्वयादिषु। स्नेहपाशैर्निबध्नाति भवान् सर्वमिदं जगत्। युवां ननः सुतौ साक्षात् प्रधानपुरुषेश्वरौ। भुवारक्षत्रक्षपण अवतीर्णौ तथाच्छः। तत्ते गतोऽस्म्यरणमद्यपदारविन्द मापन्न संसृतिभयापहमार्तबन्धो। एतावतालमलमिन्द्रियलालसेन मर्त्यात्मदृक् त्वयि परे यदपत्यबुद्धिः। सूतीगृहे ननुजगाद भवान् जोनौ संजज्ञ इत्यनुयुगं निजधर्मगुप्त्यै। नानातनूर्गगनवद् विदधज्जहासि को वेद भूम्नौरुगाय विभूतिमायाम्। श्रीशुक उवाच। आकर्ण्येत्थं पितुर्वाक्यं भगवान् सात्वतर्षभः। प्रत्याह प्रश्रया नम्रः प्रहसंश्लक्ष्णया गिरा। श्रीभगवानुवाच। वचो वा समवेतार्थं तातै तदुपमन्महे। यन्न पुत्रान् समुद्दिश्य तत्त्वग्राम उदाहृतः। अहं यूयमसा वार्य इमे चद्वारकौकसः। सर्वेऽप्येवं यदुश्रेष्ठ विमृश्या सचराचरम्। आत्मा येकः स्वयं ज्योतिर्नित्योऽन्यो निर्गुणो गुणैः। आत्मसृष्टैस्तत्कृतेषु भूतेषु बहुधेयते। खं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम्। आविस्थिरोऽल्पभूर्येको नानात्वं यात्यसावपि। श्रीशुक उवाच। एवं भगवता राजन् वसुदेव उदाहरितं श्रुत्वा विनष्ट नानाधिस्तूष्णीं प्रीतमनाभूत्। अथ तत्र गुरुश्रेष्ठ देवकी सर्वदेवता श्रुत्वा नीतं गुरोः पुत्रमात्मजाभ्यां सुविस्मिता। कृष्णरामौ समाश्राव्य पुत्रान् कंसविहिंसितान् स्मरन्ति कृपणं प्राह वैक्लव्यादश्रुलोचना। देवक्युवाच। राम रामा प्रमेयात्मन् कृष्णयोगेश्वरेश्वर। वेदाहं वां विश्वसृजामीश्वरावादिपूरुषौ। कालविध्वस्तसत्त्वानां राज्ञामुच्छास्त्रवर्तिनां भूमेर्भारायमाणानामवतीर्णौ किलाद्य मे। यस्यांशांशांसभागेन विश्वोत्पत्तिलयोदयाः भवन्ति किल विश्वात्मन् तं त्वाद्याहं गतिङ्गता चिरान्मृतसुतादाने गुरुणा कालचोदितौ अनिन्यसु पितृस्थानात् गुरवे गुरुदक्षिणां तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ। भोजराजहतान् पुत्रान् कामये द्रष्टुमहरितान् ऋषिरुवाच एवं संचोदितौ मात्रा रामः कृष्णश्च भारत सुतलं संविविशतुर्योगमायामुपाश्रितौ तस्मिन् प्रविष्टा उपलभ्य दैत्यराज विश्वात्मदैवं सुतरां तथात्मनः तद्दर्शनहल्लादपरिप्लुताशयः सद्यः समुत्थायन नाम सान्वयः तयोः समानीयवरासनं मुदा निविष्टयोस्तत्र महात्मनोस्तयोः दधार पादावनिज्य तज्जलं सवृन्द आब्रह्म पुनद्यदम्बुः समर्हयामास सतौ विभूतिभिर्महार्हवस्त्राभरणानुलेपनैः ताम्बूलदीपामृतभक्षणादिभिः स्वगोत्रवित्तात्मसमर्पणेन च स इन्द्रसेनो भगवत्पदाम्बुजं बिभ्रन्मुहुः प्रेम विभिन्नया धिया उवाच आनन्दजलाकुलेक्षणः प्रहृष्ट रोमा नृपगद्गदाक्षरम्। बलिरुवाच नमो नन्ताय बृहते नमः कृष्णाय वेधसे साङ्ख्ययोगवितानाय ब्रह्मणे परमात्मने दर्शनं वां हि भूतानां दुष्प्रापं चाप्य दुर्लभं रजस्तमः स्वभावानां यन्नः प्राप्तौ यदृच्छया दैत्यदानवगन्धर्वाः सिद्धविद्याध्रचारणाः यक्षरक्षपिशाचाश्च भूतप्रमथनायकाः विशुद्धसत्त्वधाम्न्यद्धा त्वयि शास्त्रशरीरिणि नित्यं निबद्धवैरास्ते वयं चान्ये च तादृशाः केचनोद्बद्धवैरेण भक्त्या केचन कामतः न तथा सत्त्वसंरब्धाः सन्निकृष्टा असुरादयः इदमित्थमिति प्रायस्तव योगेश्वरेश्वर न विदन्त्यपि योगेशा योगमायां कुतो वयम् तन्नः प्रसीद निरपेक्ष विमृग्ययुस्मत् पादारविन्दधिषणान्यगृहान्धकूपात् निष्क्रम्य विश्वशरणाङ्ग्युपलब्धवृत्तिः शान्तो यथैकौत सर्वसखैश्चरामि साध्यस्मानीषितव्येष निष्पापान् कुरु नः प्रभो पुमान् यच्छ्रद्धया तिष्ठन् शोदनाय विमुच्यते। श्रीभगवानुवाच आसन्मरीचेः षट्पुत्रा ऊर्णायां प्रथमेऽन्तरे देवाः कंजः सुर्वीक्ष्य सुताम् यभितुमुद्यतम् तेनासुरीमगन् योनिमधुना वद्यकर्मणा हिरण्यकशिपोर्जाता नीतास्ते योगमायया देवक्या उदरे जाता राजन् कंसविहिंसिताः सातान् छोचत्यात्मजान् स्वांस्त इमे ध्यासतेऽन्तिके इत एतान् प्रणेष्यामो मातृशोकापनुत्तये ततः शापाद्विनिर्मुक्ता लोकम् यास्यन्ति विज्वराः स्मरोद्गीतः परिष्वङ्गः पतङ्गः क्षुद्रभृद्घृणी षडिमे मत्प्रसादेन पुनर्यास्यन्ति सद्गतिम् इत्युक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ पुनर्द्वारवतीमेत्य मातुः पुत्रान् यच्छताम् तान् दृष्ट्वा बालकान् देवी पुत्रस्नेहस्नुतस्तनी परिस्वज्याङ्कमारोप्य मूर्ध्न्यजिग्रदभीक्षिणशः अपाययत्स्तनम् प्रीता सुतस्पर्शपरिप्लुता मोहिता मायया विष्णो यया सृष्टिः प्रवर्तते पीत्वा मृतम् पयस्तस्याः पीतशेषम् गदाभृतः नारायणाङ्गसंस्पर्श प्रतिलब्धात्मदर्शनाः ते नमस्कृत्य गोविन्दम् देवकीम् पितरम् बलम् मिषताम् सर्वभूतानाम् ययुर्धाम दिवौकसाम् तम् दृष्ट्वा देवकी देवी मृतागमन निर्गमम् मेने सुविस्मिता मायाम् कृष्णस्य रचिताम् नृप एवं विधान्यद्भुतानि कृष्णस्य परमात्मनः वीर्याण्यनन्तवीर्यस्य सन्त्यनन्तानि भारत। सूत उवाच यैदमनुशृणोति श्रावयेद्वा मुरारेश्चरितममृतकीर्तेर्वर्णितं व्यासपुत्रैः जगदघभिदलं तद्भक्तसत्कर्णपूरं भगवति कृतचित्तो याति तत्क्षेमधाम। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे मृताग्रजानयनम् नाम पञ्चाशीतितमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्। यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।